इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका वन्दना कश्यपः। आदौ मुख्या वार्ताः। G7 शिखर सम्मेलने भागं ग्रहीतुं प्रधानमन्त्री नरेन्द्र मोदी फ्रांस देशस्य एवियन नगरं प्राप्तवान्। ब्रास्तिसल्लावायाम् आयोजितायाः वाराणसी प्रदर्शिन्याः प्रशंसां कुर्वन् प्रधानमन्त्री मोदी द्विपक्षीय सम्बद्धानां सुदृढीकरणे कला संस्कृतेः भूमिकां रेखांकितवान्। नीट यूजी पुनः परीक्षायाः पूर्वं सर्वकारेण अस्य मासस्य 12 दिनांकपर्यन्तं टेलीग्राम प्रतिबन्धितम्। जून मासस्य 30 दिनांकपर्यन्तं सन्देश सम्पादन सुविधा अपि निष्क्रिया भविष्यति। संयुक्त राष्ट्र सुरक्षा परिषदि केवलं अस्थायी आसनानां विस्ताराय आगतं प्रस्तावं भारतेन प्रख्यात। वर्तमान परिष्कार प्रक्रियां च विफलतायाः समीपम् इति कथितम्। अपि च न्यूजीलैंडस्य ऑकलैंड नगरे जापान दलं 2-1 इत्यंकैः पराजित्य भारतीय महिला दलं FIH नेशंस कप स्पर्धायाः उपान्त्य चक्रे प्रविष्टम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी G7 शिखर सम्मेलने भागं ग्रहीतुं द्विदिवसीय यात्रायाम् अद्य फ्रांस देशस्य एवियन नगरं प्राप्तवान्। प्रधानमन्त्रिणः इयम् अनवरतं सप्तमी G7 उपस्थिति वर्तते। सहैव अस्मिन् प्रमुखे बहुपक्षीय आयोजने भारतस्य इदं 13 सहभागित्वं वर्तते। इयं शिखरवार्ता भारतस्य कृते महत सामरिक महत्वं भजते, यतोहि प्रधानमन्त्री वैश्विकपटले विकासशील विश्वस्य समाह्वानानि दृढतया उपस्थापयिष्यति। अद्य सायंकाले फ्रांसदेशस्य राष्ट्रपतिः इमैनुअल मैक्रोन इत्यस्यौ प्रधानमन्त्रिणः औपचारिकं स्वागतं विधास्यति। ततः परं श्रीमोदी नूतन सहभागिता निर्माणम् अथ अन्ताराष्ट्रिय एकतायाः सुदृढीकरणम् इति मुख्य विषयाधारिते उच्चस्तरीय उपवेशने भागं भजिष्यति। इतः पूर्वं प्रधानमन्त्री नरेन्द्र मोदी स्लोवाकिया देशस्य यात्रां परिसमाप्यं फ्रांस देशाय प्रस्थितवान्। तेनोक्तं यत् तस्य स्लोवाकिया यात्राया भारत स्लोवाकिया देशयोः द्विपक्षीय सम्बद्धाः अतीव सुदृढाः भविष्यन्ति। यात्रायाः अनन्तरं सामाजिक संजालीय सन्देशे प्रधानमन्त्रिणः प्रख्यापितं यत् उभयदेशयोः सुदृढ व्यापारिक सम्बद्धेभ्य युवान आतिथ्यं लाभान्वितं भविष्यति। सः स्लोवाकिया सर्वकारं तत्रत्य जनसमुदायं च आतिथ्य सत्काराय कृतज्ञतां ज्ञापितवान्, तथा च स्वस्य समकक्षाय प्रधानमन्त्रिणे रॉबर्ट फिको इत्यस्मै च विशेषतः धन्यवादः प्रकटितवान्। प्रधानमन्त्री नरेन्द्र मोदी प्रावोचत् यत् कला संस्कृतयोः जनान् आकर्षितुं महतीं शक्तिर्भवति। प्रधानमन्त्री श्रीमोदी स्लोवाकिया देशस्य राष्ट्रपतिः पीटर पेलेग्रिनी इत्येतौ विगतदिने स्लोवाकिया देशस्य ब्रास्तिस्लावा स्थिते राष्ट्रपति प्रासादे वाराणसी विषयाधारितं काञ्चन विशिष्टां चित्रकला प्रदर्शिनीं दृष्टवन्तौ, यस्यां स्लोवाकिया देशस्य एव कलाकारैः कृताः कृतयः प्रदर्शिताः आसन्। एतस्याः कलायाः कृते ब्रास्तिस्लावा नगरे बनारस कनेक्ट इति नाम प्रदाय प्रधानमन्त्रिणा स्लोवाक कलाकाराणां सृजनात्मक प्रतिभायाः भूरिशः प्रशंसा कृता। विदेश मन्त्रालयेन सूचितं यत् इयं प्रदर्शिनी वाराणसी नगरी इति विषयाधारिता आसीत्। अस्मिन् भारतस्य प्राचीनतमया जीवन्त नगर्याः आध्यात्मिकं सांस्कृतं च सामान्य जनजीवनं कलाकृतिभिः अतीव सुन्दरतया चित्रितम् आसीत्। राष्ट्रिय पात्रता सह प्रवेश परीक्षा नीट इत्यस्याः पुनर्परीक्षा जून मासस्य 21 दिनांके आयोजयिष्यते। परीक्षायाः पूर्वं भारत प्रशासनेन टेलीग्राम संदेश प्रेषण अनुप्रयोगः जून मासस्य 22 दिनांकं यावत् प्रतिबन्धितः। राष्ट्रिय परीक्षा अभिकरणेन NTA तथा वैद्युत एवं सूचना प्रविधि मन्त्रालयस्य निर्णयस्य स्वागतं कृतम्। अभिकरणस्य वक्तव्यानुसारेण अयं प्रतिबन्धः पुनरपरीक्षादिनं तथा तदनन्तरकालं यावत् प्रभावी भविष्यति। अपि च टेलिग्राम संस्थायै पूर्वप्रकाशितसन्देशानां सम्पादनसौविध्यम् अपि जूनमासस्य 30 दिनाङ्कपर्यन्तं निष्क्रियं कर्तुं निर्देशः प्रदत्तः। NTA इत्यस्य मतानुसारं प्रश्नपत्रभेदप्रसारं मिथ्या अपवादानां तथा सङ्घटितप्राकृतिकचौरचक्राणां दुष्प्रवृत्तिः अवरोद्धुम् एषः निर्णयः गृहीतः। छात्राणां हितरक्षणाय तथा परीक्षायाः निष्पक्षतायै एते उपायाः क्रियन्ते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतेन संचेतना प्रदत्ता यत् संयुक्त राष्ट्र सुरक्षा परिषदः परिष्कार सम्बद्धाः प्रयासाः निष्फलाः भवेयुः यदि तस्य विस्तारः केवलम् अस्थायी सदस्य वर्ग पर्यन्तमेव परिसीमितो भवति। संयुक्तराष्ट्रसंघे भारतस्य स्थायी प्रतिनिधिः राजदूतः हरीश पर्वथनेनी महोदयः सुरक्षा परिषदः परिष्कार विषये प्रचलितानाम् अन्तर सर्वकारीय वार्तालापां सभायाम् एतद् अभ्यधात्। श्रीपर्वथनेनी अवदत् यत् परिषदः विस्तारः केवलम् अस्थायी सदस्यवर्गे एव विधीयते, तर्हि सः परिष्कार प्रयासः न केवलम् अपर्याप्तः अपितु वस्तुतः विफलतामेव गमिष्यति, यतः तेन सुरक्षा परिषदः पञ्चस्थायी सदस्यानां विद्यमानायाः निर्णयप्रक्रियायाः अधिकारसंरचनायाश्च किमपि मौलिकं परिवर्तनं न परिलक्ष्यते। नवदेहल्यां 26th 2000 विकसित भारत युवा संसद कार्यक्रमस्य प्रतिभागी सह संवादं कुर्वन् लोकसभाध्यक्ष ओम बिरला लोकतन्त्रे जनसहभागितायाः महत्वस्योपरि बलं प्रदत्तवान्। अध्यक्षमहोदयेन प्रतिपादितं यत् भारतस्य लोकतन्त्रं केवलं शासनप्रणाली एव नास्ति, अपितु एषा संवाद सहमति सहभागितानां काचित् जीवित परम्परा अस्ति। महिला हॉकी क्रीडायां न्यूजीलैंड देशस्य ऑकलैंड नगरे प्रचल्यमानायाः FIH हॉकी नेशंस कप स्पर्धा मालिकायाः उपान्त्यचक्रे भारतेन प्रवेशो प्राप्तः। पूल ए इत्यस्य द्वितीये द्वन्द्वे भारतीय महिलादलेन जापान दलं 2-1 इति अंकांतरालेन पराजितम्। अस्याः प्रतियोगितायाः पूल ए इत्यस्य अन्तिमे चक्रे गुरुवासरे भारतस्य सम्मुखं उरुग्वे दलं भविष्यति। भारतीय ऋतुविज्ञान विभागेन सूचितं यत् अरुणाचल प्रदेशे, असमे, मेघालये, हिमालय पाद प्रदेशे, पश्चिम बंगाले, सिक्किम राज्ये च एतेषु राज्येषु आगामि रविवासर पर्यन्त केषुचित् स्थानेषु तीव्र अतितीव्र च वर्षा सम्भाव्यते, तथा च तमिलनाडु राज्ये पुद्दुचेरी कराईकल इत्यत्र च आगामि शुक्रवासर पर्यन्त अतिवर्षायाः संभावना वर्तते। ऋतु विभागस्य अनुसारेण अद्य दिल्ली, चंडीगढ़, हरियाणा, पंजाब, हिमाचल प्रदेश, आंतरिक कर्नाटक, जम्मू कश्मीर, लद्दाख, झारखंड, मध्य प्रदेश, महाराष्ट्र स्थलेषु मेघगर्जनेन सह वृष्टिः विद्युत च संभाव्यते। अनेन सह प्रतिहोरा 50 किलोमीटर परिमित वेगेन प्रबल वायुश च संभाव्यते। जनाः आवश्यक जनसंचेतनाः पालयन्तु, ऋतुः विभागस्य निर्देशाञ्च अनुसरन्तु। इति वार्ताः।